इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य आन्ध्रप्रदेशस्य अमरावती क्षेत्रे 58,000 कोटि रूप्यकाणां विभिन्नानां विकासात्मक परियोजनानां उद्घाटनं शिलान्यासं च स्थापयित्वा राष्ट्राय समर्पयिष्यति। समग्रे हि देशे विश्वस्तरीय आधारभूतावसंरचनां सम्पर्क सौविध्यानि च सुनिश्चेतुं स्वप्रतिबद्धतानुरूपं प्रधानमन्त्री आन्ध्रप्रदेशे 7 राष्ट्रियराजमार्गपरियोजनानां एकस्याः रेलपरियोजनायाश्च आधारशिलामपि स्थापयिष्यति। अत्रावधौ अनेकासाम् आधारभूतावसंरचनानाम् आधारशिलां स्थापयिष्यति, यासु विधानसभा, उच्चन्यायालय, सचिवालयाः, अन्यानि च प्रशासनिकभवनानि, 25,000 शतसंख्यकानि, परिवारेभ्य आवासभवनानि च सम्मिलितानि सन्तीति, यासां व्ययं 44,200,011,00,000 रूप्यकाणां यावदेव अस्ति। अत्रान्तरे असौ आन्ध्रप्रदेशस्य नागायलंका स्थले भूयोपि 60,40,000 रूप्यकाणां व्ययुतं प्रक्षेपास्त्र परीक्षण क्षेत्रं सम्मिलितं वर्तते। श्रीमोदी विशाखापत्तनम स्थलस्य मधुरवाड़ा क्षेत्रे पीएम एकता मॉल इत्येतस्यापि आधारशिलां स्थापयिष्यति, यस्य प्रयोजनं राष्ट्रियैकतायाः संवर्धनं, एकः जनपदः एकः उत्पादः इत्येतस्य समर्थनमिति वर्तते। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः काले केरल राज्यस्य तिरुवनन्तपुरम स्थले भारतस्य प्रथमस्य अर्धस्वचालित जलपोत स्थानकस्य विजिंजाम इंटरनेशनल पोर्ट इत्येतस्य अन्ताराष्ट्रिय जलपोत स्थानकस्य उद्घाटनं विधास्यति। श्रीमोदी अत्रान्तरे जलपोत स्थानकस्य परिचालन भवनस्य भ्रमणं कृत्वा नियन्त्रण प्रणाल्याः निरीक्षणं करिष्यति। एतस्मिन् समारोहे केरल प्रदेशस्य राज्यपालः राजेन्द्र आर्लिकरः, मुख्यमन्त्री पिनाराई विजयन इत्यसौ, केन्द्रीय जलपोत जलमार्ग मन्त्री सर्बानन्द सोनोवालः, राज्यस्य मन्त्रिणः, वरिष्ठाधिकारिणश्च उपस्थिताः भवेयुरिति। प्रधानमन्त्री नरेन्द्रमोदी अकथयत् वेब्स शिखर सम्मेलनं वैश्विक मञ्चे भारतस्य रचनात्मक शक्तिं प्रकाशितवत्। असौ उक्तवान् यत् भारतं चलचित्र निर्माणस्य, डिजिटल सामग्र्याः, गेमिंग फैशन इत्यनयोः, संगीतस्य, सजीव प्रसारणस्य च क्षेत्रे वैश्विक केन्द्रस्य रूपेण उद्भवति। ध्यानास्पदं वर्तते यत् ह्यः मुम्बय्यां जियो वर्ल्ड कन्वेंशन सेंटर इत्येतस्मिन् क्षेत्रे वेब्स इति प्रथमं वैश्विक मनोरंजन सम्मेलनं समुद्घाट्य प्रधानमन्त्रिणा मोदिना एतत् सर्वं प्रोदीरितम्।
आज भारत फिल्म प्रोडक्शन, डिजिटल कंटेंट, गेमिंग, फैशन और म्यूजिक का ग्लोबल हब बन रहा है। लाइव कंसर्ट से जुड़ी इंडस्ट्री के लिए अनेक संभावनाएं हमारे सामने हैं। आज ग्लोबल एनिमेशन मार्केट का साइज $430 बिलियन से ज्यादा का है।
उत्तराखण्ड राज्ये केदारनाथ धाम्नोः वेबफलकम् अद्य प्रातःकाले 7 वादनतः श्रद्धालुभ्यः उद्घाट्यते। बाबा केदारनाथस्य पञ्चमुखी चलविग्रहोत्सव डोली इत्यपि सैन्यबलस्य मधुरध्वनिना सह जयोद्घोषैः सह च धाम प्राप्तवती। आईपीएल इत्येतस्यां 20-20 क्रिकेट स्पर्धा मालिकायां ह्यः रात्रौ क्रीडिते द्वन्द्वे जयपुरस्य सवाई मानसिंह क्रीडांगणे मुम्बई इण्डियंस दलेन राजस्थान रॉयल्स दलं 100 धावनांकैः पराभूतम्। अद्य च अहमदाबाद नगरस्य नरेन्द्र मोदी क्रीडांगणे गुजरात टाइटन्स दलं सनराइजर्स हैदराबाद दलं सम्मुखीकरिष्यति। क्रीडैषा सायं 7:30 वादनतो क्रीडिष्यते। अद्य तीव्रवातेन वृष्ट्या सह दिल्ल्याः राष्ट्रिय राजधानी क्षेत्रस्य च जनाः विश्रान्ताः जाताः। अद्य प्रातः काले दिल्ल्यां तस्याः च निकटवर्तीषु क्षेत्रेषु तीव्रवायुना सह अत्यधिकवृष्टिः जाता इति वार्ताः।